श्रीगणेशाय नमः। येन धौता गिरः पुंसां विमलैः शब्दवारिभिः समस्याज्ञानजं भिन्नं तस्मै पाणिनये नमः। ॐ सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै। ॐ शान्ति शान्ति शान्ति। हरिः ॐ श्रीगुरुभ्यो नमः। हरिः ॐ। धन्यवादः।
धन्यवादः भगिनि। सर्वेभ्यो नमः। सर्वेषां स्वागतम् अस्मिन् वर्गे। रघुवीरानन्दस्वामी नमस्कारः। अस्माकं प्रवर्तमानः विषयः अस्ति तत्र बिदिलिङ्ग् लकारः। नमस्कारः। नमस्कारः स्वामी। बिदिलिङ्ग् लकारः, बिदिलिङ्ग् लकार, तत्र बिदिलिङ्ग् लकारस्य अर्थद्वयं भवति। तत्र एकः अर्थः अस्ति सम्भावना इति, अपि अन्यः अस्ति तत्र विध्यर्थे इति। अस्मिन् पाठे विषयः कः इत्युक्ते तत्र सम्भावनार्थे इति। यत्र शङ्का अस्ति, यदा तत्र कदाचित् प्रायः अथवा इति, तत्र तादृश वक्तुम् इच्छामः, तद् भवितुम् अर्हति, भवेत् इति, तादृश अर्थे तत्र सम्भावना इति उच्यते। अस्मिन् अर्थे अस्मिन् पाठः अस्ति तत्र विधिलिङ्गकारस्य प्रथमविध अर्थः। तत्र पाठे तु केवलम् एकं सम्भाषणमेव दत्तम् इति कृत्वा तत्र तत्र ईमेल् द्वारा मया प्रेषितमस्ति अन्यत् तत्र करपत्ररूपेण तत्र परिचयः, परिचयः न प्रवेशः इति, तत्र संस्कृतभारत्याः तत्र डिस्टेन्स् लेङ्ग्वेज् प्रोग्राम् यत् अस्ति तस्मिन् तत्र करपत्रम् अस्ति। सर्वैः प्राप्तं वा करपत्रम्?
आम् महोदय।
अस्तु अस्तु अस्तु, तर्हि तत्र लक्ष्मी भगिनी आरम्भं करोति वा करपत्रम्?
मनस्वी कर... कार्यार्थी न गणयति दुःखं न च सुखम्।
कार्यार्थी यत् यः कार्यं कर्तुम् इच्छति अपि मनस्वी अस्ति, मनस्वी तत्र बोल्ड् इति लिखितम् अस्ति, तत्र कार्यार्थी तत्र एमिङ्ग् टु अकम्प्लिश् अ टास्क्, कार्यं कर्तुम् इच्छति सः,
सः न दुःखं सुखं च न गणयति।
न गणयति, सुखं भवतु दुःखं भवतु, किन्तु यत् कार्यं करणीयं तद् कुर्वन्नेव भवति। अग्रे भगिनि।
भाषाभ्यासः। सम्भावनार्थे लिङ् लकारः। अद्य सायं वृष्टिः भवेत्।
तत्र अद्य सायं वृष्टिः भवेत्, तत्र वृष्टिः भवति इति, तत्र यदि वयं सम्यक्तया न जानीमः तस्मिन् सन्दर्भे एतद् वदामः खलु, अस्मिन् अद्य सायं वृष्टिः भवेत् इति। अग्रे
भवेत्। यानम् इदानीम् आगच्छेत्। यानस्य आगमनं न निश्चयेन वक्तुं न शक्यते।
तत्र अतः तत्र आगच्छेत्, आगच्छेत्।
मम प्रत्यागमने विलम्बः स्यात्। अस्ति अस्धातोः विधिलिङ्ग्।
अस्धातोः विधिलिङ्ग् स्यात् इति समीचीनं भगिनि। तत्र प्रत्यागमने, तत्र मै रिटर्निङ्ग्, मम प्रत्यागमने विलम्बः भवितुम् अर्हति तत्र. अतः समये अहं प्रत्यागमिष्यामि इति न जानामि, अतः तत्र विलम्बः स्यात् प्रत्यागमने. अग्रे
अद्य अध्यापकः पाठद्वयं पाठयेत्.
हा अद्य अध्यापकः पाठद्वयं पाठयेत्. हा तत्र न जानीमः अध्यापकः कति, हा तत्र कति पाठान् कति पाठान् हा कति पाठय पाठान् पाठयति इति न जानीमः, अतः पाठद्वयं पाठयेत् इति लिखितमस्ति. समीचीनं भगिनि. अस्तु अग्रे रघुपति महोदय अग्रे.
आम् महोदय, एकवारं सीता प्रायः पुस्तकं न पठेत् पठनस्य सम्भावना अस्ति.
तत्र न जानीमः तत्र यदि सा पठति न वा इति. अतः
अग्रे सीता सा गीतं न गायेत्. तत्र गैदातु गायेत् इति. पिता नूतनवस्त्रम् आनयेत् इति नीदातु आनयति आनयेत्. धनिकः दशरूप्यकाणि दद्यात् दद्यात् ददाति इत्यस्य दद्यात् ददातु दद्यात्. अद्य बान्धवाः मम गृहम् आगच्छेयुः आगच्छन्ति आगच्छेयुः
आगच्छन्ति आगच्छेयुः इति. समीचीनं महोदय. अस्तु अग्रे रघुवीरनन्दस्वामी
महोदय. पुस्तके वा एतत्?
न न करपत्रम् अस्ति महोदय, तत्र ईमेल् द्वारा प्रेषितमस्ति. तत्र वी विल् यूस् दिस् फैल् इति तत्र लिङ्क् अस्ति महोदय.
लिङ्क् वा?
पी डि एफ़् अस्ति तत्र, यदि अथवा यदि भवतः पार्श्वे तत्र परिचयः अस्ति तत्र परिचयात् स्वीकृतम् एतत्. तत्र परिचयः इति संस्कृतभारत्याः
न उद्घाटितवान् किन्तु अटाच्मेण्ट् नास्ति. इदानीम् अहं मम पार्श्वे अस्ति महोदय.
अस्तु अस्तु द्वितीय इदानीं द्वितीय पुटं महोदय.
ते फलानि वा?
हा समी सत्यं.
ते फलानि आनयेयुः
आनयेयुः आनयन्ति, किन्तु न जानीमः यदि ते आनयन्ति. अतः आनयेयुः अतः तत्र मैट् इति. हा
छात्राः परश्वः प्रवासं कुर्युः
कुर्युः. हा कुर्वन्ति इति न वक्तुं शक्नुमः, अतः कुर्युः प्रायशः कुर्वन्ति अथवा केवलं कुर्युः इति.
टूर् इति प्रवासं वा महोदय?
हा प्रवासं, हा तत्र प्रवासं टूर् हा यात्रा इति तदपि समीचीनम्
यात्रा. जनाः नायकं सम्मानयेयुः. अहं काव्यं लिखेयम्.
हा इदानीं तत्र हा इदानीं महोदय तत्र काव्यं लिखेयम् अग्रे तत्र हा अपि तत्र भयं नाटकम्
अभिनयेम अभिनयेम वयं श्वः नाटकं पश्येम
पश्येम. तत्र शल् इति अस्ति महोदय खलु, तत्र मैट् इति नास्ति, इदानीं शल् इति अस्ति. तत्र प्रायशः अत्र तत्र विध्यर्थे ऐ शल् डू दिस् ऐ विल् डू दिस् इति अर्थे अस्ति. तत् अग्रिमे पाठे भवति, अतः तत्र इदानीं तत्र लिखेयमिति ऐ मैट् इति एव चिन्तयामः. तत्र प्रायशः लिखामि इति अर्थे इदानीं स्वीकुर्मः तत्र सम्भावना इति. यतोहि तत्र शल् इति लिखितमस्ति किन्तु सम्भावनार्थे एव दत् इति दत्तमस्ति किन्तु हा. अतः इदानीं तत्र स्पष्टमस्ति इति मन्ये तत्र विधिलिङ्गलकारस्य सम्भावनार्थे तत्र अर्थः कः इति विधिलिङ्गलकारस्य. अस्तु, तत्र प्रायशः यत्र सम्भावना तत्र गेस्सिङ्ग् ऊहा प्रायशः अथवा तत् तादृश सन्दर्भः अस्ति तस्मिन् समये तत्र विधिलिङ्गकारस्य प्रयोगः भवति। हा, इदानीं तत्र गीताञ्जलिभगिनी अग्रे तत्र पठति इति धातोः तत्र रूपाणि लिखितानि सन्ति भगिनि, एकवारं पठति वा तत्र?
लिङ्लकारः परस्मैपदी रूपाणि पठेत् पठेतां पठेयुः पठेः पठेतं पठेत् पठेयं पठेव पठेम।
तत् अस्ति तत्र परस्मैपदी, यदि परस्मैपदधातुः अस्ति तत्र लिङ्लकाररूपाणि दत्तानि सन्ति। इदानीं तत्र अधोभागे आत्मनेपदीरूपाणि अपि दत्तानि सन्ति।
आत्मनेपदीरूपाणि वन्देत् वन्देत वन्देयातां वन्देरन् वन्देथाः वन्देयाथां वन्देध्वम्
वन्देय वन्देवहि वन्देमहि। हा, अतः तत्र पठति इति स्थाने पठेत् इति भवति, अपि तत्र पठामि इति स्थाने पठेयम् इति, पठावः पठेव पठेम इति। अतः तत्र भेदः कः इति अग्रिमे पुटे दत्तमस्ति, तदपि एकवारं पठतु भगिनि अग्रिमे पुटे।
आम् महोदय, note the difference in the form between lat lakar and lin lakar parasmay padi atmane padi vartamane pat yogah a yogah ti pathati atmane padi vand yogah a yogah te vandate lin lakare pat yogah e yogah takar pathe pathe vand yogah e yogah ta vandeta
इति। हा, अतः तत्र इदानीं तत्र रूपं स्पष्टमस्ति इति मन्ये खलु, तत्र पठति कथं पठेत् इति भवति, तत्र अकारस्थाने एकारः अपि तत्र, हा, अपि ति इति स्थाने इत् इति तावदेव, सत्यं भगिनि, हा तावदेव। अतः तत्र सुलभम् एव अस्ति तत्र, अतः तत्र वन्दते किं भवति, तत्र वन्देत इति भवति, तत्र एकारः तकारस्य अनन्तरम् आसीत्, इदानीम् एकारः तकारात् पूर्वमेव अस्ति खलु, तत्र तकारः एकारः आत्मनेपदे धातु मध्ये तकारः एकारः, एकारः अन्ते आसीत्, इदानीम् एकारः मध्ये अस्ति, तावदेव। वन्दते इदानीं वन्देत न तु वन्दत ए वन्दते इति नास्ति, वन्देत इति अस्ति।
महोदय, तत्र सम्भावनार्थे विधिलिङ्ग अपि च प्रायशः,
सम्भावना इत्युक्ते प्रायशः इत्यर्थे, सः एकः प्रथमः अर्थः अस्मिन् पाठे, एषः अर्थः एव उक्तः गीतासोपने, अग्रिमे पाठे तत्र विध्यर्थे तद् भवतु, लोट्लकार इति तादृश अर्थे भवति तद् भवतु इति।
महोदय, किन्तु सम्भावनार्थे अपि च मैट् अपि च प्रोबबल् किञ्चित् भेदः तु अस्ति एव।
हा, किन्तु तत्र रूपे रूपे तत्र भेदः नास्ति, सन्दर्भ सन्दर्भं दृष्ट्वा एव तत्र वक्तुम् अर्थः कः इति ज्ञातुं शक्नुमः।
इत्युक्ते मम प्रश्नः इत्युक्ते प्रथमवाक्यम् अद्य सायं वृष्टिः भवेत् इति अपि समीचीनं वा, अद्य सायं वृष्टिः प्रायशः भवेत् इति अपि
तदेव अर्थः,
किन्तु वाक्यं समीचीनं तत्र
प्रायशः इति, प्रायशः भवेत् इति, तत्र प्रायशः इति तस् पदस्य आवश्यकता नास्ति, अद्य सायं वृष्टिः प्रायशः भवति इति।
मम
यदि यदि भवेत् अस्ति चेत् तत्र मध्ये प्रायशः तस्य स्थापन तस्य आवश्यकता नास्ति
नास्ति किन्तु यथा अहम् उक्तवती मैट् अपि च प्रोबबल् किञ्चित् यदस्ति प्रायश इत्युक्ते प्रोबबल् इति मन्ये महोदय न जानामि
महोदय सत्यं सत्यं तत्र सम्भावना इति तत्र किं चिन्तयामः तद् भवति इति तत्र अथवा न भवति निश्चयेन न भवति इति तत्र अवगच्छामि भगिनि तत्र किन्तु अत्र तु केवलं तत्र सन्दर्भं दृष्ट्वा एव वक्तुं शक्नुमः तत्र प्राबबल् अस्ति वा अथवा मैट् अस्ति वा इति तत्र प्रायशः इति स्थापनेन अर्थभेदः न भवति इति मन्ये भगिनि तत्र यतोहि तत्र प्रायः अथवा प्रायशः इति एव अर्थः भवेत् इति तत्र विधिलिङ्गकारस्य किन्तु तत्र वयं दृष्टवन्तः तत्र गीतासोपने तत्र प्रायशः इति वाक्ये अपि आसीत् खलु तत्र तत्र वाक्ये तत्र गीतासोपने पुस्तके अपि तत्र यानि उदाहरणानि दत्तानि सन्ति तस्मिन् अपि तत्र प्रायशः अथवा कदाचित् अपि आसीत् प्रायशः अपि आसीत् इति मन्ये अस्तु किन्तु भेदः अस्ति इति अवगच्छामि भगिनि तत्र मैट् अपि तत्र प्रोबबल् इति तत्र मैट् इति तत्र न जानीमः तत्र निश्चयेन करोति वा अथवा तत्र अहं जानामि इति तादृश अर्थे अतः तत्र सन्दर्भानुगुणम् इति तावदेव वक्तुं शक्नोमि भगिनि
आं महोदय आं महोदय अद्य सायं वृष्टिः न भवेत् अपि विपरीतार्थः
अतः तत्र
इच्छार्थे अपि भवति इति इच्छार्थे अपि भवति इति इच्छाति चेत् तदपि लिङ्गकारस्य प्रयोगः भवति इति अस्ति तत्र विधिनिमन्त्रणामन्त्रण अधीष्टसम्प्रश्न इति अस्ति प्रार्थनासु अपि च इच्छार्थे अपि इच्छां करोति चेत् तदपि अस्ति इच्छार्थे अपि भवितुमर्हति इति इच्छा वृष्टि भवेत् मम इच्छा अस्ति इति तादृश वृष्टिः भवेत् तादृश अर्थः तदपि अन्यसूत्रेण अस्ति तत्र
किन्तु अतः महोदय तत्र रूपं दृष्ट्वा
वाक्यस्य अर्थ वाक्य तत्र किमस्ति किं लिखितम् आशयं दृष्ट्वा एव
वाक्यमपि सन्दर्भं दृष्ट्वा एव तत्र कः अर्थः भवति इति वक्तुं शक्नुमः
अस्तु आं महोदय धन्यवादः
अस्तु भगिनि इदानीं तत्र अत्रापि केचन अभ्यासः दत्ताः तदपि तत्र शीघ्रतया कुर्मः तदनन्तरं गीतासोपनमपि गच्छामः तत्र लिखति इति अस्ति तत्र इदानीं तत्र वयं पठति इति तस्य तु नवरूपाणि दत्तानि सन्ति अतः तत्र लिखति तत्र एकवारम् अभ्यासमपि कुर्मः तत्र लक्ष्मी भगिनी लिखति इति लिख् धातोः रूपाणि एकवारं वदति वा
आं महोदय लिखति लिखेत् एकवचने लिखेत् बहुवचने लिखेयुः
किन्तु पट् धातोः रूपं दृष्ट्वा तत्र पठेत् पठेतां पठेत्
पूर्णं
वक्तुं शक्नुमः
लिखेत् लिखेतां लिखेयुः लिखेः लिखेतं लिखेत लिखेयं लिखेव लिखेम
इति समीचीनं भगिनि अस्तु इदानीं रघुपतिमहोदय तत्र अग्रिममस्ति तत्र
गच्छति गच्छति गच्छेतां गच्छेतां गच्छेयुः गच्छेः गच्छेतं गच्छेत गच्छेयं गच्छेव गच्छेम
इति समीचीनं रघुवीरन्दस्वामी अग्रे तत्र तृतीयः तत्र नयति इति
महोदय
स्त्रीमध्ये
नयेत् इति
नयेतां येयुः नयेः नयेतं नयेत नयेम् नयेयं नयेव नयेम
नयेम समीचीनं महोदय. तत्र नय इति यकारः धातोः मध्ये अपि अस्ति, अतः तत्र तदनन्तरं यम् इति, अतः नये यम् इति. समीचीनं महोदय. अस्तु, गीताञ्जलिभगिनी अग्रे. इदानीं तत्र
पतति
पतति
पतति पतेत् पतेतां पतेयुः पतेः पतेतं पतेत पतेयं पतेव पतेम
पतेम इति. अस्तु, इदानीं तत्र आत्मनिपदि धातुः आगच्छति, तत्र बन्धते इति. हा, तत्र लक्ष्मीभगिनी बन्धते वन्देत इति दत्तमस्ति. अस्तु, तत्र
श्लाघेत श्लाघेयादां श्लाघेरन् श्लाघे श्लाघेताः श्लाघेयाथां श्लाघेध्वं श्लाघेय श्लाघेवहि श्लाघेमहि
श्लाघेमहि. समीचीनं भगिनि, धन्यवादः. अस्तु, इदानीं तत्र अग्रे तत्र तत्र विशिष्टरूपाणि अपि अत्र अपि दत्तानि सन्ति. तत्र रघुपतिमहोदय, तत्र करोति इति
रूपाणि
दृष्ट्वा तत्र नवरूपाणि अपि वदतु
महोदय. कुर्यात् कुर्यात् कुर्याताम् कुर्युः कुर्याः कुर्यातम् कुर्यात कुर्याम् कुर्याव कुर्याम.
समीचीनं महोदय. तत्र कुर्याः कुर्यातम् कुर्यात इति
कुर्याः कुर्यातम् कुर्यात कुर्याम कुर्याव कुर्याम कुर्याम कुर्याव कुर्याम इति
कुर्याम. समीचीनं महोदय. अस्तु, रघुवीरेन्द्र स्वामीजी अग्रे तत्र अग्रिममस्ति तत्र दध्यात् इति. तत्र महोदय, तत्र गीतासोपने चतुर्नवतितमे पुटे दत्तम् अस्ति एतत्, यदि इच्छति चेत् तदपि दृष्ट्वा वक्तुं शक्नोति. तत्र दध्यात् इति
महोदय, दध्यात् दध्यातां दद्युः दद्याः दद्यातं दद्यात दद्यां दद्यां दद्याव दद्याम.
हा, इति समीचीनं. हा, गीताञ्जलिभगिनी अग्रे तत्र शृणुयात्
शृणुयात् शृणुयातां शृणुयुः
इति समीचीनम्. अस्तु, अग्रे लक्ष्मी भगिनी तत्र शक्नोति
शक्नुयात् शक्नुयातां शक्नुयुः शक्नुयाः शक्नुयातां शक्नुयाः शक्नुयातं शक्नुयात शक्नुयां शक्नुयाव शक्नुयाम.
हा, अस्तु, तत्र अग्रे जानाति इति. रघुपतिमहोदय, जानाति
जानाति जानीयात् जानीयातां जानीयुः जानीयाः जानीयातं जानीयात जानीयां जानीयां जानीयाव जानीयाम.
तत्र मध्यमपुरुषे किम् उक्तं महोदय? जानीयाः
जानीयाः जानीयातं जानीयात
जानीयात. समीचीनं महोदय. अस्तु, अग्रे रघुवीरेन्द्रस्वामी, इदानीं तत्र क्रीणाति इति
विशेषं वा महोदय? एतत्
हा, एतद् विशेषणरूपाणि सत्यं महोदय. तत्र
तर्हि क्री क्री इदिलिङ्ग् क्रीणीयात् क्रीणीयात् क्रीणीयातां क्रीणीयुः
क्रीणीयाः क्रीणीयाः
क्रीणीयाः क्रीणी तं क्रीणीयातं क्रीणीयात क्रीणीयां क्रीणीयाव क्रीणीयाम
हा समीचीनं महोदय एतत्तु तत्र क्रयादिगणे नवमगणे अस्ति खलु तत्र क्रीण् अतः तत्र सर्व तत्र करोति ददाति सर्वं तत्र प्रथमगणे अथवा हा तत्र
सप्तनादिगणे न अष्टम न सप्तमगणे वा अष्टमगणे इति एतत्तु क्रयादिगणे अस्ति न इति अस्ति तत्र हल हलादिप्रत्यय अस्ति चेत् तत्र ईत्वं भवति ई सर्वत्र अतः सर्वत्र क्रीणीयात् जानीयात् अत्र हल या इति अस्ति खलु हलादिप्रत्यय अस्ति अतः ईकारः भवति सर्वत्र इत्यस्यवरातः इत्यनेन ईति इति भवति
समीचीनं महोदय हा तत्र अन्यत्र नास्ति खलु सत्यं सत्यं शृणुयात् दद्यात् आकारः कुर्यात् आकारः इति एव अस्ति तत्र
सा इत्यस्य अजादिप्रत्ययः अस्ति चेत् तत्र आकारस्य लोपः भवति हलादिप्रत्ययः अस्ति चेत् ईत्वं भवति इति अस्ति अतः यत्र यात् यातां युः सर्वत्र अस्ति अतः स्नाप्रत्ययस्य सर्वत्र हलादि अस्ति अत्र प्रत्ययः अतः ईत् भवति जानीयात् इति परन्तु अत्र कुर्यात् इति तत् तादृशं नास्ति तत् स्ना इत्य प्रत्यय कृते एव अस्ति
हा सत्यं महोदय हा समीचीनं हा अन्तिमम् अस्ति तत्र गीताञ्जलि भगिनी तत्र अस् धातोः तत्र प्रायशः तत्र न दत्तमस्ति तत्र स्युः स्याः मध्यमपुरुषे स्याः स्यातं स्यात्
स्यात् यां स्याव स्याम
हा स्याव स्याम समीचीनं हा समीचीनं समीचीनम् आसीत् भगिनि अस्तु हा इदानीं तत्र अग्रिमे पुटे तत्र यद् दत्तमस्ति तत् प्रायशः तत्र भवन्तः एव कुर्वन्तु किन्तु तत्र अन्तिमे पुटे तत्र वाक्यानि सन्ति तत्र तद् तत्र चतुर्थ अभ्यासः रोमन् चतुर्थः तत् कुर्मः तदनन्तरं गीतासोपनं गच्छामः तर्हि तत्र लक्ष्मी भगिनी तत्र सीङ्ग् द क्लौडी स्कै इति अस्ति हा
क्रीडति अत्र क्रीडति वा महोदय
न न अन्तिमपुट अन्तिमपुटे
वृष्टिः भवति भवेत्
हा इदानीं वृष्टिः भवति इदानीं वृष्टिः भवेत् इति
इदानीं वृष्टिः भवति इदानीं लट्लकारे इदानीं वृष्टिः भवति लिङ् लकारे इदानीं वृष्टिः भवेत् जलबिन्दवः पतन्ति जलबिन्दवः पतेयुः
पतेयुः समीचीनं भगिनि हा जलबिन्दवः पतेयुः रघु रघुपतिमहोदय
अस्तु मार्गेषु जलं प्रवहति मार्गेषु जलं प्रवहेत् वहेत् प्रवहेत् प्रवहेत् खलु
प्रवहेत् समीचीनं महोदय अस्तु रघुवीरनन्दस्वामी अग्रे
महोदय अग्रिमं
भूमिः आर्द्रा भवति भूमिः आर्द्रा भवति अन्तिमपुटे अस्ति महोदय इदानीं मध्ये तत्र
महोदय
अन्तिमपुटे अन्तिमपुटे तत्र करपत्रे अन्तिमपुटे तृतीयवाक्यं
क्षमिता महोदय हरि ओं श्रोतुं शक्यते वा
इदानीं शृणोमि महोदय. हा श्रूयते. हा तत्र सीन् द क्लौडी स्कै इति अभ्यासः अस्ति खलु महोदय.
आम् महोदय.
तत्र तृतीयवाक्यः तृतीयवाक्यं
भूमिः आर्द्रा भवति. भूमिः आर्द्रा भवेत्
भवेत् समीचीनं भवेत्. हा यदि वृष्टिः तदा भूमिः आर्द्रा भवेत् समीचीनं. गीताञ्जलि भगिनि
जनाः आश्रये तिष्ठन्ति. जनाः आश्रये तिष्ठेयुः वा.
हा समीचीनं भगिनि. हा समीचीनम्. एतद् रूपं भवेत् इति भवती चिन्तितवती वा?
न न जनाः तु बहुवचनमस्ति.
न न न भगिनि, तत्र तिष्ठेयुः इति रूपं भवेत् इति भवती चिन्तितवती.
उत्तमं महोदय.
अस्तु लक्ष्मी भगिनी अग्रे.
केचन छात्रं केचन छत्रम् उद्घाटयन्ति. केचन छत्रम् उद्घाटयेयुः.
हा उद्घाटयेयुः समीचीनं भगिनि. हा अस्तु अग्रे रघुपति महोदय.
यानानि मन्दं गच्छन्ति. यानानि मन्दं गच्छेयुः.
मन्दं गच्छेयुः समीचीनं. हा रघुवीरानन्दस्वामी.
आं महोदय. यानात् अवतीर्य जनाः धावन्ति. यानात् अवतीर्य जनाः धावेयुः.
धावेयुः समीचीनम्. अस्तु अग्रे गीताञ्जलि भगिनि.
निर्धनानां गृहाणि पतन्ति. निर्धनानां गृहाणि पतेयुः.
पतेयुः समीचीनं. पतेयुः लक्ष्मी भगिनी अग्रे.
तद् गृहजनाः रोदनं कुर्वन्ति. तद् गृहजनाः रोदनं कुर्युः.
कुर्युः. हा कुर्युः. रघुपतिमहोदय अग्रे.
हा महोदय. अधिकारिणः आगच्छन्ति. अधिकारिणः आगच्छेयुः.
आगच्छेयुः समीचीनम्. अग्रे रघुवीरन् स्वामी अग्रिम अभ्यासः.
महोदय इत्युक्ते किम् अन्तिमं वाक्यम्?
अधिकारिणः
आगच्छेयुः.
गुणिवत् महोदय.
हा हा अधिकारिणः. अस्तु रघुवीरानन्दस्वामी.
आं महोदय. चेञ्ज् द फालोयिङ्ग् सेण्टेन्सेस् इण्टु प्लूरल् नम्बर्. मानवः धर्मं पालयेत्. मानवाः धर्मं पालयेयुः. मार्जारः मूषकं गृह्णीयात्. मार्जाराः मूषकं गृह्णीयुः.
समीचीनं महोदय. गृह्णीयात् गृह्णीयुः समीचीनं.
गृह्णीयाता
हा तत्र द्विवचने अपि कर्तुं इच्छति वा? करोतु महोदय.
मार्जारौ मूषकं गृह्णीयाताम्.
हा बहु समीचीनं महोदय. धन्यवादः. अस्तु गीताञ्जलि भगिनी अग्रे.
आं महोदय. छात्रः कोलाहलं न कुर्यात्. छात्राः कोलाहलं न कुर्युः.
हा न कुर्युः समीचीनं. लक्ष्मी भगिनी अग्रे. लक्ष्मी भगिनि न श्रूयते भगिनि. अस्तु रघुपति महोदय
श्रूयते वा?
हा इदानीं.
सा फलानि दद्यात् सा ताः फलानि दद्युः
ताः फलानि दद्युः समीचीनं रघुपति महोदय
चोरः वस्तूनि अपहरेत् ई चोराः वस्तूनि अपहरेयुः
रघुनन्दस्वामी अग्रे
महोदय श्रूयते वा
श्रूयते
कर्मकरः वस्तूनि आनयेत् कर्मकाराः वस्तूनि आनयेयुः
तत्र कर्मकराः इति एव खलु महोदय कर्मकराः वस्तूनि आनयेयुः आनयेयुः समीचीनं महोदय आनयेयुः समीचीनं अग्रे गीताञ्जलि भगिनि
मम मित्रम् आगच्छेत् ओ मम तु दत्तमेव मम मित्राणि आगच्छेयुः
मम मित्राणि आगच्छेयुः समीचीनम् अस्तु अग्रे लक्ष्मी भगिनी
छात्रः श्लोकं वदेत् छात्राः श्लोकं वदेयुः
वदेयुः समीचीनम् रघुपति महोदय
अस्तु अध्यापकः पाठान् पाठयेत् अध्यापकाः पाठान् पाठयेयुः
पाठयेयुः समीचीनं महोदय तावदेव अस्ति अस्तु महोदय तत्र तत्र पाठेयुः पाठेयुः इति वा अथवा
न पाठयति खलु
सत्यं 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 पाठयति इति समीचीनं पाठयेयुः तत्र एव अस्ति समीचीनं महोदय धन्यवादः ममपि क्लेशः आसीत् तत्र यकारः धातोः मध्ये अस्ति अतः तत्र
पठेयुः इति भवति पठेयुः विद्यार्थिनः पाठान् पाठान् पठेयुः इति भवति
किन्तु
अध्यापकः पाठान् पाठयेयुः
समीचीनं महोदय अस्तु अस्तु तर्हि इदानीं तत्र अन्यः अभ्यासः अस्ति किन्तु तम् अभ्यासं गृहपाठरूपेण कुर्वन्तु इदानीं तत्र गीतासोपानं गच्छामः तत्र गीतासोपाने तत्र प्रायशः तत्र तत्र द्विनवतितमे पुटे तत्र भगवद्गीताः गीतायाः श्लोकाः तत्र त्रयं कृतवन्तः द्वयम् अवशिष्टम् अस्ति किन्तु तद् अनन्तरं कुर्मः इदानीं तत्र प्रथम अभ्यासः अधोभागे अस्ति तम् अभ्यासं कुर्मः अतः द्विनवतितमे पुटे गीतासोपाने तत्र रघुवीरान्दस्वामी भवानेव आरम्भं करोति वा
महोदय प्रायः एतानि उदाहरणवाक्यानि परिशीलयत लिखत च यत् अत्र सन्देहः अस्ति उत न इति
तत्र सन्देहः अस्ति न वा इत्युक्ते तत्र विधिलिङ्गकारः अस्ति किन्तु तत्र सन्देहः अस्ति न वा इति अस्तु
सम्भावना एकं सन्देहं द्वितीय
समानार्थक सम्भावना इत्युक्ते सन्देहः एव अत्र
प्रायः अद्य वृष्टिः न भवेत् सन्देहः अस्ति इति लिखितम्
इत्युक्ते सन्देहः इत्युक्ते तत्र निश्चयेन न जानीमः इति तावदेव महोदय यत्र निश्चयेन न जानीमः तत्र सन्देहः अस्ति इति तावदेव
कदाचित् मम प्राप्तेः पूर्वमेव ते गच्छेयुः ते गच्छेयुः सन्देहः अस्ति महोदय
हा सन्देहः अस्ति हा
दे मे लीव् बिफोर् ऐ रीच् देर्
हा तत्र सत्यं तत्र प्राप्तेः इति पदस्य विभक्ति का महोदय तत्र
प्राप्तः अतः प्राप्तेः सप्तमी वा
न न न तत्र प्राप्तेः तस्मात् पूर्वम् इति अतः पञ्चमी इति अर्थे महोदय तत्र पूर्वं तत्र प्राप्तेः इत्युक्ते तत्र पदमस्ति प्राप्तिः खलु अहं तत्र तत्र किम् अस्ति तत्र
इकारमस्ति चेत्
हा तत्र चिन्तयतु तत्र गृहे बान्धवाः आगच्छन्ति तत्र बान्धवाः सन्ति किन्तु अहं गृहं गच्छामि किन्तु गृहस्य प्राप्तिः यदा मया मम गृहस्य मम गृहस्य प्राप्तिः यदा भवति तदा अहं पश्यामि ते तु तत्र न सन्ति ते मम प्राप्तेः प्राक् गतवन्तः ते अतः तत्र कदाचित् तत्र तु हा यत् उदाहरणं उक्तवान् तत्र केवलं प्राप्तिः इति तावदेव किन्तु तत्र सम्भावना नास्ति तत्र निश्चयम् अस्ति अत्र किमस्ति मम प्राप्तेः पूर्वमेव ते गच्छेयुः अतः तत्र न जानामि यदि ते गच्छन्ति न वा इति गतवन्तः इति न जानामि किन्तु ते गच्छेयुः अतः तत्र सन्देहः अस्ति वा न वा महोदय
सन्देहः अस्ति महोदय
हा सन्देहः अस्ति तत्र गीताञ्जलिभगिनी प्रश्नः आसीत् वा भगिनि
महोदय तत्र प्रायः अद्य वृष्टिः न भवेत् सन्देहः अस्ति अस्तु किन्तु यदि वाक्यमस्ति अद्य वृष्टिः न भवेत् तदपि सन्देहः अस्ति
सन्देहः अस्ति सत्यं भगिनि अतः तत्र प्रायः इति पदस्य योजनेन तत्र लाभः
लट् अथवा भविष्यत्कालरूपं वक्तुं शक्नुमः
किन्तु तत्र विधिलिङ्ग् लकारस्य अर्थः स एव अर्थः भवति तत्र परिवर्तनं न भवति भगिनि
अस्तु अस्तु महोदय
अतः एव मया चिन्तितं तत्र प्रायः इति वाक्ये स्थापितम् आसीत् किन्तु कुत्र इति प्रथमवाक्ये एव अस्ति अतः तत्र प्रायः अस्ति चेत् अपि तत्र प्राबबल् इति तत्र वयं चिन्तयामः सत्यं सत्यं हा प्रायः अस्ति इति वदामः तद् प्राबबल् इति अर्थे किन्तु तत्र विधिलिङ्गलकारे तादृश अर्थः नास्ति तत्र प्राबबल् इति
महोदय तर्हि अद्य अस्तु प्रायः इति अस्ति दत्तमस्ति अतः पुनः किमर्थं प्रायः वृष्टिः भविष्यत् न भविष्यति इति वक्तुं शक्नुमः खलु तद् समीचीनमेव एतत् प्रायः इति
प्रायः न भविष्यति इति वक्तुं शक्नुमः सत्यं महोदय
प्रायः
इति पदस्य अस्ति इति कृत्वा वयं जानीमः तत्र सन्देहः अस्ति इति अत्र यदि प्रायः इति पदम् अस्ति अपि भवेत् अपि इति अस्ति अतः तत्र सन्देहद्वयमस्ति
सन्देहः तु प्राबबल् अस्ति चेत् तु भवति एव किञ्चित् किन्तु किञ्चित् किं किञ्चित् सम्भावना अधिकमस्ति इति एव
सत्यं भगिनि सत्यं हा सत्यं तावदेव
प्रायः कदाचित् इति अस्ति चेत् सम्भावना एव भवति खलु महोदय
इति साधारणतया किन्तु तत्र यदि लट् लकाररूपम् अस्ति चेत् तत्र तादृश अर्थं स्वीकर्तुं शक्नुमः किन्तु केवलं विधिलिङ्गरूपेण तादृश अर्थः न भवति केवलं भवेत् तत्र वृष्टिः भवेत् अथवा प्रायः वृष्टिः भवेत् तत्र प्रायः अर्थस्य परिवर्तनं न अस्ति इति मन्ये
महोदय अत्र प्रायः भिन्नभिन्न अर्थाः सन्ति खलु, अतः अत्र सन्देहार्थे एव तद् द्योतयितुं प्रायः इति उक्तवान्। अद्य वृष्टिः न भवेत् इति आशा अपि भवितुमर्हति खलु,
अतः
इच्छा, अतः एव प्रायः इति स्पष्टं भवति इति कृत्वा प्रायः इति दोषाय न इति अहं चिन्तयामि
इदानीम्।
तद् समीचीनं, सन्देहस्य द्योतनं भवति
किन्तु अस्मिन् पाठे तु केवलं सम्भावनार्थे एव इति।
आमाम्, अस्मिन् पाठे तु अस्ति,
अतः तत्र तत्र अतः एकः एव अर्थः तत्र यदि आगच्छति एकः एव अर्थः भवतु।
तर्हि दोषः नास्ति इति खलु अहं
वदामि, दोषः नास्ति
सन्देहस्य, इदानीं सन्देहः अहं प्रकटयामि इति।
सत्यं महोदय, अस्तु अस्तु, तत् अस्तु, तत्र अर्थद्वयमस्ति, तत्र विद्यार्थे अथवा इच्छार्थे अथवा सन्देहार्थे इति अनेकाः अर्थाः सन्ति, किन्तु यदि प्रायशः इति स्थापयामः निश्चयम् अस्ति तत्र सन्देहः
एव,
सन्देहः एव सः एव अर्थः इति। सत्यं महोदय, तद् तत् समीचीनम्। अस्तु अग्रे लक्ष्मी भगिनी।
यदि यानं शीघ्रं गच्छेत् तर्हि समये प्राप्नुयाम् एव। अत्रापि सन्देहः एव, यदि यानं शीघ्रं गच्छेत् तर्हि समये प्राप्नुयाम् एव।
तत्र तत्र भागद्वयमस्ति खलु भगिनि, तत्र यानं शीघ्रं गच्छेत् इति
गच्छेत्,
तत्र सः एकः भागः, अन्यः भागः द्वितीयभागः, तत्र
समये प्राप्नुयाम्
एव, तत्र एव इति अस्ति, प्राप्नुयाम् एव इति, अतः तत्र यानं शीघ्रं गच्छेत् तत्र सम्भावनार्थे अस्ति इति मन्ये। इदानीं तत्र एतस्य पाठं न कृतं, तत्र समये प्राप्नुयाम् एव तत्र प्रायः तद् विद्यार्थे अस्ति इति मन्ये, तत्र निश्चयः अस्ति, केवलं प्रथमभागे सन्देहः अस्ति, तत्र यदि यानं शीघ्रं गच्छति न वा इति तस्मिन् विषये सन्देहः अस्ति, किन्तु यदि यानं शीघ्रं गच्छति तर्हि समये प्राप्नुयाम् इति खलु, तत्र प्राप्नुयाम् इत्युक्ते प्राप्नोमि एव, तत्र द्वितीयभागे सन्देहः नास्ति इति मन्ये, किन्तु प्रथमभागे सन्देहः अस्ति, तत्तु समीचीनं। अस्तु अग्रे गीताञ्जलि भगिनि।
आम् महोदय, ज्ञानी
न सम्भवतः इदानीं
सम्भवतः कक्ष्यायां श्वः गणितपाठः भवेत्, तत्रापि सन्देहः तु अस्ति एव, सम्भवतः दत्तमेव नास्ति चेत् अपि सन्देहः अस्ति।
तत्र गणितपाठः सम्भवतः अस्ति श्वः,
श्वः इति कारणेन सम्भावना एव,
केवलं श्वः इति न, श्वः करोमि इति,
श्वः भवति वा न भवति वा वयं न जानीमः,
न जानीमः, सत्यं भगिनि,
अतः सम्भावना एव,
सम्भावना एव, किन्तु तत्र यदि किन्तु तादृश अपि नास्ति, श्वः तत्र मम मित्रं गृहम् आगच्छति, तत्र निश्चितमस्ति सः आगच्छति इति, किन्तु यदि न जानीमः, तत्र न जानामि तत्र सः आगच्छति न वा इति, तस्मिन् सन्दर्भे आगच्छेत् इति वदामि, अतः तत्र गणितपाठः यदि श्वः भवति, श्वः एव इति अस्ति, किन्तु श्वः भवति इति निश्चितमस्ति चेत् श्वः भविष्यति इति वक्तुं शक्नुमः, किन्तु भवेत् इति दत्तं, सम्भवतः इति दत्तम्, अतः तत्र कोऽपि सन्देहः नास्ति।
महोदय, तत्र विधिलिङ्गलकारः त्रिषु कालेषु भवितुमर्हति, इत्युक्ते
तत्र वर्तमानकाले अपि भवितुम् अर्हति,
भूतकाले न भवितुम् अर्हति खलु,
भूतकाले न,
वर्तमाने भविष्यति एव,
वर्तमानकाले भवितुम् अर्हति, तत्र तत्र
भूतकालात् भूतकाले अपि लिङ्ग् भवितुम् अर्हति इत्युक्ते यथा ह्यः वृष्टिः प्रायः न भवेत्, न जानामि, अहं तु न जानामि, किं वदामि इत्युक्ते प्रायः ह्यः वृष्टिः न भवेत् भूतकाल अस्ति न
भवति, अहं चिन्तयामि एतत्तु भविष्यत्काले एव भवति खलु, अतः भविष्यत्काले इत्युक्ते अद्यतनकाले
वर्तमानकाले
अद्य
इदानीमेव तत्र इदानीं तत्र रमेशः कुत्र अस्ति न जानामि, तत्र रमेशः तत्र किम् आपणे स्यात् इति
न महोदय इत्युक्ते अत्र यथा इति वाक्ये सम्भवतः कक्षायां श्वः गणितपाठः भवेत्, किमर्थं सन्देहः अस्ति इत्युक्ते अहं तु न जानामि
सत्यं सत्यं भगिनि,
किन्तु अध्यापकः जानाति एव
सत्यं तत्र केवलम् अस्माकं ज्ञानस्य तत्र कर्तुः ज्ञानम् इति एव तत्र अस्तु तत्र अस्तु चिन्त्य अस्तु भगिनि तत्र तस्मिन् विषये किञ्चित् चिन्तनं कुर्मः किन्तु प्रश्न
तत्र महोदय तत्र यत्र इदानीं तत्र विशेषणमस्ति इदानीं सः मृतः स्यात् इति वक्तुं शक्नुमः इति तादृश सः मृतः इति तत्र मृतः इत्यत्र विशेषणमस्ति तस्यात् इति भवतु भवति अहं न जानामि इदानीम् अस्ति वा इति सः मृतः स्यात् तादृशात् तत्र भवितुमर्हति परत् तद् तद् तत्र कर्तुं शक्नुमः मृतः स्यात् इति सम्भावना एव खलु तत्र
सम्भावना एव किन्तु तत्र भूतकाले तत्र किञ्चित् चिन्तनीयमस्ति भगिनि किन्तु दृष्ट्वा वदामि किन्तु तत्र भवत्याः प्रश्नः तु उत्तमः एव तत्र किञ्चित् चिन्तयित्वा वदामि भगिनि इदानीं न जानामि तत्र भूतकाले भवेत् भवति न वा इति अस्तु इदानीम् अग्रे तत्र
हानिः कोऽपि हानिः दृष्ट्वा प्रायः अत्र वृष्टिः किमस्ति तत्र वृष्टिः अभवत् इति
अतः तत्र भवितुम् अर्हति मन्ये किन्तु उदाहरणं न दृष्टवान् अथवा मनसि न आगच्छति अतः
इदानीं तदस्ति द्रष्टव्यं ममापि सन्देहः तादृश भवितुमर्हति तादृश सन्दर्भे कथं करणीयम् इति एतस्य प्रयोगः भवितुमर्हति वा विधिलिङ्ग
अस्तु तर्हि अग्रे रघुवीरनन्दस्वामी अग्रे
अग्रे किं पठनीयं महोदय
तत्र कदाचित् परीक्षा अस्मिन् मासे एव भवेत्
ओ कदाचित् परीक्षा अस्मिन् मासे एव भवेत् सन्देहः अस्ति महोदय भवेत् इति प्रार्थनारूपेण
कदाचित् अपि तत्र कदाचित् परीक्षा अस्मिन् मासे एव भवेत् अतः तत्र सन्देहः अस्ति एव समीचीनं लक्ष्मी भगिनी अग्रे
कदाचित् विद्युत् गता स्यात् अत्रापि सम्भावना अस्ति
हा समीचीनम् अस्तु रघुपति महोदय अग्रे
विद्युत् गता
किं भगिनि किं भगिनि
विद्युत् गता लिङ्गम् इत्युक्ते काल भूतकाल वाक्यं न महोदय
महोदय अपि च अहम् इदानीं एतत् आर्तिकलकारः अस्ति खलु अतः कालिकलकारः नास्ति कालं न सूचयति अतः तत्र भावमेव सूचयति अतः भवितुमर्हति एतत् कालिकलकारः एव खलु एतत् नास्ति खलु अर्थं द्योतयति खलु अतः तत्र अर्थः अतः भवितुमर्हति विद्युत् गता स्यात् अत्र
एतत्
अस्ति अस्ति भूतकाले अस्ति अर्थ एव कालस्य न भवति एव चिन्तनं न
समीचीनं
कालं सूचयति
लङ्लकारः
अपि च लुङ्लकारः लुट् लकारः विधिलिङ्ग् लोट् एते आशीर्लिङ्ग् एते कालिकलकारण आर्तिकलक अर्थं सूचयति विशेष अर्थं कालं न सूचयति खलु अतः तादृश अर्थ अर्थदृष्ट्या एव केवलं
विपरीतपदं किं महोदय कालिक तु
कालं सूचयति यत् कालिकलकारः ये कालं सूचयति यत् अर्थं सूचयति विशेष अर्थं सूचयति आर्थिकलकार इति वदन्ति केचन तादृश अवगमनार्थं सम्यक् भवति
पुनः वदतु महोदय पदं कालिक अपि च
आर्थिक आर्थिकलकारः कालिकलकारः इति तद्धितप्रत्ययः अस्ति कालिक आर्थिक तद्धित
धन्यवादः महोदय
समीचीनमेव अस्ति भगिनि तत्र अतः तत्र
कदाचित्
गता स्यात् इति तत्र हा इदानीम् अग्रे रघुपतिमहोदय इदानीं तत्र सर्वे
सर्वे हा सर्वे खादन्ति सर्वे खादन्ति अतः सन्देहः नास्ति
नास्ति सत्यं हा सर्वे खादन्ति अस्तु गीताञ्जलिभगिनी अग्रे
अहं सर्वं न जानामि
न न पूर्वं सर्वे पश्येयुः
क्षम्यतां सर्वे पश्येयुः सर्वे पश्येयुः सन्देहः तु अस्ति न महोदय
तत्र सम्भावनार्थे इति चिन्तयितुं शक्नुमः अग्रिमपाठ यदि कुर्मः अग्रिमपाठं यदा कुर्मः तत्र विद्यार्थी अपि भवितुम् अर्हति इति ज्ञास्यामः तत्र पश्यन्तु सर्वे पश्यन्तु तत्र एतद् द्रष्टं द्रष्टव्यम् अस्ति एतत् दृश्यं द्रष्टव्यम् अस्ति अतः तत्र सर्वे पश्यन्तु पश्येयुः इति तत्र विद्यार्थी अपि भवितुम् अर्हति किन्तु अत्र तु सर्वे पश्यन्ति न वा इति न जानीमः इति अर्थे एव अस्ति अतः तत्र सर्वे पश्येयुः सम्भावना अतः सन्देहः अस्ति
महोदय अत्र प्रायः कदाचित् वेदानि पदानि नास्ति न सन्ति
किन्तु तस्मिन्
विद्यार्थे एव भवति
तादृश नास्ति भगिनि तादृश नास्ति तत्र लकारस्य रूपं विद्यार्थे एकमेव रूपं किन्तु अर्थद्वयम् अस्ति सम्भावना इति एकः अर्थः विद्यार्थे इति अन्यः अर्थः किन्तु रूपम् एकमेव
कदाचित्
प्रायशः नास्ति चेदपि एषः एव अर्थः तत्र रमेशः कुत्र अस्ति रमेशः आपणे स्यात् सम्भावनाम् अर्थे न जानामि प्रायशः स अथवा प्रायशः स आपणे अस्ति अथवा सः आपणे स्यात् इति तत्र सन्दर्भं दृष्ट्वा तत्र सम्भावना इति वक्तुं शक्नुमः अग्रे अतः अस्मिन् पाठे केवलं सम्भावना इति एव अग्रिमे पाठे तत्र विद्यार्थे इति तस्य तद् कथम् इति जानीमः किन्तु रूपं समानम् अस्ति भगिनि अतः तत्र नूतनरूपं नास्ति केवलं तत्र सन्दर्भद्वयं भवितुमर्हति इति ज्ञानं तावदेव अत्र अस्ति अस्तु अग्रे तत्र हा भवति एव इति मन्ये अग्रिमम्
अहं सर्वं न जानामि अत्र सम्भावना नास्ति
अत्र निश्चयम् अस्ति तत्र अहं सर्वं न जानामि न जानामि अस्तु अग्रे रघुवीरनन्दस्वामी
अहं सर्वं न जानीयाम् तद् सम्भावना नास्ति सत्यमेव
तत्र किं महोदय
सन्देहः नास्ति
किन्तु वाक्ये किम् अस्ति इति तावदेव तत्र सर्वं न जानीयां जानीयाम् इति अस्ति चेत् तत्र सन्देहः अस्ति इति तावदेव अहं सर्वं न जानीयां तत्र जानामि अस्ति चेत् तत्र
सन्देहः कस्य वाक्यम् अस्ति महोदय
केवलं तत्र वाक्यं दृष्ट्वा इदानीं विषयः कस्य वाक्यम् इति नास्ति तत्र कस्यापि वाक्यं न
भवितुं जानीयाम्
अहं कस्य वाक्यम् इति न जानामि अस्तु समीचीनं महोदय अतः तत्र जानीयाम् अस्ति चेत् सन्देहः अस्ति किन्तु कः वदति इति न जानीमः अस्तु तर्हि तत्र गतवर्गे तत्र द्वितीयाभ्यासं कृतवन्तः इति मन्ये. तत्र अग्रिमे पुटे तत्र प्रायशः एतद् न कृतवन्तः, तत्र तृतीयाभ्यासः न कृतवन्तः इति मन्ये चतुर्नवतितमे पुटे. अतः तत्र तत् कुर्मः, तदनन्तरं तत्र भगवद्गीतायाः श्लोकान् परिशीलयामः. रघुपतिमहोदय अग्रे.
आम् महोदय, किमर्थं महोदय अधोलिखितानि वाक्यानि तदेव
सत्यं महोदय, तृतीयाभ्यासः.
अधोलिखितानि वाक्यानि सम्भावनारूपेण परिवर्त्य लिखत. अस्तु, मम मित्रम् आगच्छति, मम मित्रम् आगच्छेत्.
मम मित्रम् आगच्छेत्, समीचीनं. गीताञ्जलि भगिनि अग्रे.
सः पत्रं लिखति, सः पत्रं लिखेत्.
सः पत्रं लिखेत्, समीचीनं. हा, रघुवीरानन्दस्वामी अग्रे.
अतिथयः प्रश्नं पृच्छन्ति. अतिथयः प्रश्नान् पृच्छेयुः.
पृच्छेयुः, पृच्छन्ति, पृच्छेयुः. अतिथयः एकवचने किम् अस्ति महोदय?
पृच्छेत्.
अतिथिः
प्रश्नान् पृच्छेत्,
पृच्छेत्, समीचीनं महोदय. लक्ष्मी भगिनी अग्रे.
आवां त्वाम् आह्वयाव. आवां त्वाम् आह्वयाव.
समीचीनं. तत्र आह्वयति, आह्वयेव इति अस्ति वा?
आवाम् इति अस्ति, अतः आह्वयाव. गृह्णी
गृहदातु समानयति. पाठयाव, पाठयामः. प्रायशः तदेव अस्ति भगिनि. तत्र आवां त्वाम् आह्वयाव. अस्तु, समीचीनमिति मन्ये भगिनि. अस्तु, अग्रे रघुपति महोदय.
एकवारं महोदय. सः तदेव खलु, सः पञ्चम खलु?
पञ्चम.
सः श्वः चिन्तां करिष्यति. सः श्वः चिन्तां कुर्यात् इति अस्ति.
सः श्वः चिन्ता
कुर्यात्, चिन्तां, सोरि, क्षम्यतां, चिन्तां कुर्यात्.
कुर्यात् सः श्वः चिन्तां कुर्यात्, समीचीनं महोदय. अस्तु, गीताञ्जलिभगिनी अग्रे.
वयं प्रीत्या वार्तालापं कुर्मः. वयं प्रीत्या वार्तालापं कुर्याम.
उपरि एव अस्ति खलु भगिनि, तत्र कुर्याम.
कुर्याम,
वयं प्रीत्या वार्तालापं कुर्याम, समीचीनं भगिनि. अस्तु, रघुवीरनन्द.
सर्वे न शक्नुवन्ति, सर्वे आगन्तुं न शक्नुयाम.
न, सर्वे इति अस्ति, अतः पुरुषः कः महोदय? उत्तमपुरुषः वा प्रथमपुरुषः वा? सर्वे
महोदय शक्नुवन्ति इति अस्ति चेत् प्रथमपुरुषः नास्ति वा?
प्रथमपुरुषः एव, अतः रूपं किम्?
ओ, क्षम्यतां, क्षम्यतां, सत्यं, शक्नुयुः, शक्नुयुः. सर्वे इति प्रथम विभक्ति बहुवचनं.
सर्वे आगन्तुं न शक्नुयुः. समीचीनं महोदय, इदानीं. अस्तु, अग्रे लक्ष्मी भगिनी.
तौ दम्पती न आगमिष्यतः. तौ दम्पती न आगमिष्येताम्.
न न न न तत्र आगमिष्यति इति तत्र इदानीं तत्र लट् लकारे नास्ति, किन्तु प्रथमतया तत्र लट् लकारे परिवर्तनं करोतु. तौ दम्पती न
लट् लकारे, हा तौ आगच्छतः
आगच्छतः. हा इदानीं तत्र विधिलिङ्ग्लकारं करोतु तस्य. गच्छेत् तत्र विधिलिङ्ग्लकार गम् धातोः विधिलिङ्ग्लकार किम् अस्ति? मध्यमपुरुषे तत्र मध्यमपुरुषे न तत्र तौ इति तौ इति प्रथमपुरुषे एव द्विवचने तत्र गच्छेत् गच्छेताम्. इदानीं तत्र आ इति उपसर्ग आगच्छेत् गच्छेताम्
आगच्छेत् आगच्छेताम् तौ दम्पती न आगच्छेताम्
हा इति एव. तत्र मिश्रणं न कर्तुं शक्नुमः, तत्र भविष्यत्कालः अपि विधिलिङ्ग्लकार मिश्रणं न कर्तुं शक्नुमः.
ओ अस्तु
खलु, तत्र केवलं गम् धातुः इति उपयुज्य गम् धातोः विधिलिङ्ग्लकार अपेक्षितं, न तु तत्र
अस्तु
अस्तु. अतः तत्र तौ दम्पती न आगच्छेताम् इति
आगच्छेताम्.
समीचीनं भगिनि, अस्तु अग्रे रघुपति महोदय.
भवत्याः बहूनि कार्याणि भवन्ति, भवत्याः बहूनि कार्याणि भवेयुः
भवेयुः. समीचीनं, गीताञ्जलि भगिनी अग्रे.
अनेन मम साहाय्यं भवति. अनेन मम साहाय्यं भवेत्.
अनेन मम साहाय्यं भवेत्. समीचीनं भगिनि, अस्तु. तत्र अग्रिमे पुटे तत् एतदपि वयं कृतवन्तः इति मन्ये, तत्र गतवर्गे तत्र क्रीणीयात् इति गृह्णाति अश्नाति सर्वं कृतवन्तः. अतः किन्तु पञ्चमं न कृतवन्तः इति मन्ये, अतः तत् कुर्मः. तत्र कस्यचिदपि धातोः अस्तु, समीचीनमेव अस्ति. अस्तु अग्रे तत्र रघुपतिमहोदय अग्रिमं तत्र पञ्चम अभ्यासः आरम्भं करोति वा?
आम् महोदय, एकवारं पञ्चम अभ्यासः. अस्तु, कस्यचिदपि तदेव खलु महोदय, कस्यचिदपि कस्यचिदपि धातोः विधिलिङ्ग् लकाररूपाणि उपयुज्य यथोदाहरणं वाक्यानि रचयत, यथा सः कुर्यात् तौ कुर्याताम् ते कुर्युः. इदानीं किमस्ति अन्य धातून् उपयुज्य
करणीयं तावदेव, तत्र अन्य कोऽपि धातुः.
अस्तु अस्तु, सा जानीयात् सा जानीयाम् सारि सा जानीयात् ते जानीयातां ताः जानीयुः.
हा ताः जानीयुः, समीचीनं महोदय. अग्रे गीताञ्जलि भगिनि.
एषः क्रीणीयात् एते क्रीणीयाताम् एताः
न न एषः अस्ति खलु इदानीं तत्र एषः एतौ एते खलु
क्षम्यता महोदय. एतौ क्रीणीयाताम् एते क्रीणीयुः
क्रीणीयुः. समीचीनं भगिनि, हा एषः आसीत् चेत् तत्र हा अस्तु. अग्रे रघुनन्दस्वामी अग्रे. एषा इति
एषा चिन्तयेत् महोदय.
अस्तु,
एषा चिन्तयेत् एते एषा चिन्तयेत् एते चिन्तयेताम् एताः चिन्तयेयुः
चिन्तयेयुः एताः चिन्तयेयुः. समीचीनं, लक्ष्मी भगिनी अग्रे.
भवान् प्रीणाति उपयुज्य भवान् प्रीणीयात् भवन्तौ प्रीणीयातां भवन्तः प्रीणीयुः
प्रीणीयुः अस्तु समीचीनं भगिनी अस्तु रघुपति महोदय अग्रे
भवति खलु भवति भवती पठेत् भवत्यौ पठेत्
पठेतां
पठेतां भवत्यौ पठेतां भवत्यः पठेयुः
पठेयुः समीचीनं हा गीतञ्जलि भगिनी अग्रे
अयं वा महोदय अयं दीवसि महोदय धातु दीवसि चेत् किं
यत् यत् जानाति तत् उपयुज्य तत्र
अस्तु अयं अयं शृणु शृणुयात्
हा शृणुयात् अयं शृणुयात्
अयम् इमौ इमौ न महोदय
अयम् इमौ
इमौ शृणुयाताम् इमे शृणुयुः
शृणुयुः शृणुयुः समीचीनं भगिनि अस्तु तत्र अयम् इमौ इमे अस्तु समीचीनम् इदानीं तत्र रघुवीरानन्दस्वामी अग्रे इयम् इति
इयम् इमौ इमे महोदय
न अयम् इमौ इमे किन्तु तत् पुल्लिङ्गे स्त्रीलिङ्गे इयम् इमे इमाः
क्षम्यतां महोदय ओहो इयम् इमे इमाः
इमाः
इयं गण 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 गणयति
गणये
गण
गणयति
इयं गणयति महोदय वचने
इमे इमे
इयं गणय गणयेत्
इयं गणयेत् हा इमे
गणयेत् इमे गण गणयेताम्
इमाः
इमाः गणयेयुः
हा गणयेयुः समीचीनं महोदय अस्तु अग्रे लक्ष्मी भगिनी
हा अस्तु महोदय त्वम् आप् धातोः आप्नोय त्वम् आप्नुयाः युवाम् आप्नुयातं यूयम् आप्नुयात
हा समीचीनं भगिनी
मध्यमपुरुषे अस्ति
मध्यमपुरुषे समीचीनं भगिनी हा अस्तु रघुपति महोदय अग्रे अहम् इति अहम्
अहं शक्नुयाम् इति तदेव खलु अहं शक्नुयाम् आवां शक्नुया वा वयं शक्नुयाम
हा तावदेव अस्तु समीचीनम् अस्तु इदानीम् अग्रे तत्र गीताञ्जलि भगिनी अग्रिम अभ्यासः तत्र षष्ठः किमपि नास्ति अतः सप्तम अभ्यासः
अधः लिखितानि वाक्यानि कदाचित् प्रायः श्वः यदि इत्यादीनां पदानां प्रयोगेण सम्भावनार्थे परिवर्त्य लिखत यथा अद्य रमेशः आगच्छति कदाचित् अद्य रमेशः आगच्छेत् सः आगत्य करोति प्रायः सः आगत्य कुर्यात्
प्रायः सः आगत्य कुर्यात् समीचीनं भगिनि अस्तु लक्ष्मी भगिनी अग्रे
त्वं मित्रगृहं गत्वा फलानि खादसि प्रायः त्वं मित्रगृहं गत्वा फलानि खादसि
न किन्तु तत्र पितिलिङ्गलकारः आवश्यकं खलु
ओ यदि त्वं मित्रगृहं गत्वा
यति इति मास्तु केवलं तत्र त्वं मित्रगृहं गत्वा फलानि प्रायशः त्वं मित्रगृहं गत्वा फलानि
त्वं मित्रगृहं गत्वा फलानि खादसि?
सः अस्ति चेत् सः खादेत्, त्वम् अस्ति चेत् त्वं खादेः
खादेः,
सः पठेत् त्वं पठेः
त्वं पठेः,
त्वं खादेः
खादेः,
सः मित्रगृहं गत्वा फलानि खादेत्, त्वं मित्रगृहं गत्वा फलानि खादेः
खादेः.
समीचीनं खलु भगिनि? इदानीं अतः तत्र प्रायः
खादेदां खादेयुः, खादेः खादेदं खादेत,
सत्यं
खादेः
खादेयं खादेव खादेम. तत्र अहं न दृष्टवान् तत्र यदि अपि अस्ति, तत्र यदि अपि उपयुज्य वाक्यं वदतु. यदि त्वं
मित्रगृहं
गच्छति
गच्छति तर्हि फलानि खादेत्
खादेः, तदेव रूपं समानमेव, किन्तु तत्र यदि तर्हि अपि तत्र स्थापितुं शक्नुमः. समीचीनं भगिनि, अस्तु अग्रे रघुपतिमहोदय.
कुत्र महोदय? सप्तम वा?
सप्तम सप्तम, तत्र अभ्यासः नास्ति. तत्र
अद्य लिखितानि वाक्यानि कदाचित् प्रायः श्वः यदि इत्यादीनि पदानां प्रयोगेन सम्भावनार्थे परिवर्त्य लिखता. सः आगत्य करोति.
यदि सः वयं तत्र न तिष्ठामः.
कुत्र मया इदानीं महोदय? चतुर्थ. वयं तत्र न तिष्ठामः. किमस्ति अत्र यदि
प्रायशः अथवा प्रायः अथवा श्वः इति उपयुज्य वयं न
श्वः किं महोदय? श्वः प्रायः वयं न. अस्तु अस्तु, प्रायः प्रायः वयं तत्र न तिष्ठेयं, तिष्ठाव इति
विसर्गस्य लोपः तावदेव. वयं तत्र प्रायः तत्र न तिष्ठामः तावदेव. समीचीनम् अस्तु. गीताञ्जलिभगिनी अग्रे.
बालकाः अत्र क्रीडन्ति. बालकाः श्वः अत्र एकनिमिषं महोदय.
क्रीडेयुः इति मन्ये भगिनि.
भुवादिगणे धातुः अस्ति खलु, अतः नाम
क्रीडेयुः. क्रीडेयुः तावदेव, क्रीडेयुः. समीचीनं भगिनि, अस्तु अग्रे रघुवीरानन्दस्वामि.
कुर्वन्ति कानिचन जनाः किं कुर्युः?
अस्तु, केचन जनाः
किं कुर्युः? किन्तु आवश्यकं वा महोदय? केचन
कदाचित् एव केचन कदाचित् जनाः किं कुर्युः इति खलु.
तदपि
कदाचित् कदाचित् प्रायः इति यदि एतत् सम्भावनां सूचयति खलु, सन्देहं सूचयति खलु.
केवलं तत्र केचन जनाः इति तत्र कुर्युः इति अस्ति, अतः तत्र केचन जनाः किं कुर्युः तत्र
श्वः जनाः किं कुर्युः?
एकनिमिष भगिनि, भवतः वाक्यं वदतु महोदय.
श्वः जनाः किं कुर्युः?
श्वः जनाः किं कुर्युः? समीचीनं महोदय, सम्भावनार्थे समीचीनं. लक्ष्मी भगिनी प्रश्नः.
कदाचित् इत्यस्य अर्थः एकदा इति तदपि अर्थः भवति.
सः अपि अर्थः अस्ति. सत्यं भगिनि, तत्र अत्र अस्ति खलु, तत्र कदाचित् कदाचित् अद्य रमेशः आगच्छेत्, तत्र समटैम्स् इति अर्थे अपि तत्र यस्मिन् समये सः आगच्छति तद् अपि यदि न जानीमः, सः आगच्छति इति जानीमः, किन्तु सः इदानीम् आगच्छति वा? सः कदा कदाचित् आगच्छति? अतः तत्र कदा आगच्छति इति यदि न जानीमः तत्वा अतः तत्र अर्थ केवलम् एकः एव अर्थः इति नास्ति. सत्यं भगिनि. सर्वत्र यदि इति नास्ति इति मन्ये भगिनि. यत्र यदि इति स्थापितुं शक्नुमः तत्र तृतीयवाक्ये यदि इति स्थापितवन्तः अपि तत्र सप्तम इदानीं भवती एव एतद् वाक्यं करोतु. तत्र सप्तमवाक्यः वाक्यं
सा आगच्छति त्वमपि आगच्छसि. सा यदि सा आगच्छति त्वमपि
तर्हि त्वमपि
ओ तर्हि अपि हा तर्हि त्वमपि आगच्छेहे.
हा समीचीनम्. हा तत्र यदि सा आगच्छेत् तर्हि त्वमपि आगच्छेः इति तदपि वक्तुं शक्नुमः. हा
तत्र यदि त्वं मित्रगृहं
गच्छति
ओ गच्छति
हा तर्हि फलानि खादेः. तत्र हा तत्र गत्वा इति स्थाने तत्र यदि तर्हि उक्तवन्तः यतोहि तत्र गत्वा अस्ति चेत् तत्र कार्यद्वयम् अस्ति क्रियाद्वयम् अस्ति अतः तत्र
अस्तु महोदय.
हा तत्र सर्वत्र यदि इति सर्वत्र प्राय तत्र सर्वत्र प्रायः कदाचित् स्थापितुं शक्नुमः किन्तु सर्वत्र यदि इति न स्थापितुं शक्नुमः. अस्तु अग्रे रघुनन्दस्वामी.
आं महोदय.
कार्यं समाप्य
यूयं खादथ.
श्वः
यदि
यदि
कार्यं समाप्य
अस्तु
यदि कर्तुं शक्यते वा
यदि कार्यं
यूयं यूयं खादताम्.
हा यदि कार्यं तत्र किम् अस्ति
समाप्तम् इति भवेत्. यदि कार्यं समाप्तं तर्हि
यदि कार्यं समाप्तं तर्हि यूयं
खादताम्.
समीचीनं महोदय. यूयं खादतम् इति खादतम्
खादेत खलु
खादेत
पटे पटेतं पटेत खादे खादेत
यूयं खलु यूयं खादतम् एव
न बहुवचने अस्ति खादेत
युवां यूयं यूयं तु खादेत
खादेत. सत्यं सत्यं. हा समीचीनं. हा अतः तत्र यदि कार्यं समाप्तं तर्हि यूयं खादेत. अस्तु समीचीनम्. अस्तु लक्ष्मी भगिनी अग्रे.
भवन्तः पुस्तकालयं गत्वा लिखति प्रायः लिखन्ति प्रायः भवन्तः पुस्तकालयं गत्वा लिखेयुः
लिखेयुः. समीचीनं भगिनि. अस्तु रघुपतिमहोदय अग्रे.
अद्य गृहे सारि श्वः गृहे के के तिष्ठेयुः.
हा श्वः गृहे के के तिष्ठेयुः. समीचीनम्.
अद्यापि भवितुमर्हति खलु तत्र
वयं बहिः स्मः तत्र न जानीमः के के सन्ति
अद्य अपि श्वः अपि
सत्यं. हा द्वयमपि साधु अस्ति तत्र
भवति. तादृशवाक्ये न भवति भिन्न हस्ते भवति भिन्नवाक्ये.
ओ अस्ति वा महोदय.
तादृश न भवति खलु ह्यः के के तिष्ठेयुः इति कथं भवति न भवति सम्यक् न भवति.
किमर्थं न तत्तु अहं न अवगतम्.
न भवति खलु तत्र तत्र न तिष्ठति इति तत्र कोऽपि कृदन्तपदं भूतकालिककृदन्तपदम् उपयुज्य सन्देहं प्रकटनीयम् इति अहं चिन्तयामि.
तत्र तिष्ठाः तत्र तिष्ठाः इति प्रायशः स्थिताः इति खलु
स्थितः ह्यः गृहे के के स्थिताः स्युः
स्थिताः स्युः इति
तादृशं भवति.
किन्तु तत्र अतः तत्र भूतकाले भवितुमर्हति किन्तु तत्र रूपस्य किञ्चित् सावधानं
परिवर्तनम् आमां केव आख्यातप्रत्ययं स्वीकृत्य एव न भवितुमर्हति. कोऽपि अन्य अपि क्रियापदं किमस्ति तत्र कृदन्तक्रियापदं
तत्र प्रायशः अष्टधातोः एव रूपम् अस्ति इति मन्ये. किन्तु तत् दृष्ट्वा तत्र अग्रिमे वर्गात् प्राक् किञ्चित् दृष्ट्वा वदामः तत्र भूतकाले प्रयोगः कीदृशः भवति.
आमाम् उत्तमम् उत्तमः प्रश्नः आसीत् चिन्तनम् आसीत् तद्
चिन्तनं किञ्चित्
उक्तवान् ता प्रत्यय योजयित्वा तु
तत्र उदाहरणमासीत् ता प्रत्यय उपयुज्य एकम् उदाहरणमासीत् भगिनि. किन्तु तत्र प्रयोगस्य नियमाः के इति तत्र किञ्चित् पृष्ट्वा अथवा दृष्ट्वा अग्रिमे वर्गे चर्चां कुर्मः भगिनि.
अस्तु महोदय अवगतम्.
प्रश्नः तु उत्तमः एव तत्र
यः यः के के गतवन्तः
स्युः
गतवन्तः स्यात् इति गतवन्तः स्यात् गतवन्तः
तत्र के के अस्ति चेत् स्युः एव
सारि आमां के के गतवन्तः स्युः इति
तत्र अतः तत्र स्युः इति तु तत्र भूतकाले अस्ति इति जानीमः. किन्तु अन्यधातु अपि कर्तुं शक्नुमः न वा इति पश्यामः.
अस्तु महोदय
अवगतम्. अस्तु तत्र रघुवीरनन्दस्वामी भवान् एव तत्र इदानीं समयः अपि जातः तत्र प्रार्थना वदति वा महोदय.
पूर्णमद पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्ति शान्ति शान्ति. हरिः ओम् श्रीगुरुभ्यो नमः. हरिः ओम् हरिः ओम् महोदय.